अतः एकस्यापि एकस्यापि लक्षणस्य अर्थे उक्ते उभयोरपि अर्थः सङ्गच्छते। एवञ्च एकत्र उपात्तस्य अन्यत्र व्यापारः। अस्मिन् शास्त्रे अधिकारसूत्रम् एकत्र उपात्तं भवति, अर्थात् एकत्र पाणिना उक्तं भवति। तस्य तस्य सूत्रस्य यद्यपि तत्र कोऽपि उपयोगः नास्ति, तथापि अन्यत्र अर्थात् तदग्रिमेषु सूत्रेषु तदग्रे यानि सूत्राणि वर्तन्ते तेषु तस्य उपयोगः भवति इति ज्ञेयम्। तथैव अग्रिमं लक्षणं वत्सले रक्षसंस्कारकबोधाजनकत्वे सति गोत्तरवर्ति विधिशास्त्रैकवाक्यवाबन्धत्वम् अधिकारत्वम् इति जयवाच्यः पूर्वस्य लक्षणस्य नास्ति अक्षरेण। अत्र अधिकारविषये ज्ञेयं यत् शास्त्रेऽस्मिन् प्रधानानि अधिकारसूत्राणि कानिचन सन्ति, तदन्तर्गत अधिकाराणि अधिकारसूत्राणि कानिचन सन्ति। अर्थात् यथा इदानीं लोके वयं पश्यामः सम्पूर्णस्य समग्रस्य विश्वस्य रक्षणं पालनं च करोति भगवान्, तत्र अधिकारस्थाने तिष्ठति, प्रधानः अधिकारी न भवति। ततः प्रतिराष्ट्रम् एकः अधिपतिः भवति, कल्पयामः एकः राजा वा अथवा इदानीन्तनकाले प्रेसिडेण्ट् प्रैम् मिनिस्टर् इत्यादि प्रधानस्थानम् अनुकुर्वन्ति प्रतिराष्ट्रम्। तदयः कार्यरताः भवन्ति, तदा पुनः एम् एल् ए इत्यादयः बहवः भवन्ति। एवञ्च क्रमेण प्रधानाः केचन भवन्ति। इदानीं भगवतः स्थाने सम्पूर्णम् अष्टाध्यायीं स्वीकुर्मः, स च प्रधानस्य तस्य अन्तः तस्य अधीने काञ्चन अन्यान्यपि सूत्राणि भवन्ति, तान्यपि सूत्राणि अधिकारसूत्राणि एव। कथमिति मया अग्रे एव अस्ति साक्षात् समनन्तरमेव वक्ष्यते, आदौ सः अर्थः इति अधिगन्तव्यः। अर्थज्ञानं विना यदि प्रवेशं कुर्मः तर्हि तत्र कदाचित् भवतां क्लेशः स्यात्, तथा आदौ अर्थमवगच्छामः। लौकिकः अर्थः भवद्भिः ज्ञातः स्यात्, सः अधिकारः नाम एकः प्रधानाधिकारी भवति, तस्य अधीने केचन कार्यं कुर्वन्तः भवन्ति, तदधीने अपि अर्थात् ये कार्यं कुर्वाणः तदधीने वर्तन्ते, तेषाम् अधीने अपि केचन कार्यं कुर्वाणः भवन्ति। एवञ्च क्रमेण एकं कश्चन वृक्षरूपं स्वीकरोति, तत्र वृक्षस्य मूलं कश्चित् भवति, तस्य शाखाः भिन्नाः भवन्ति, ते कापि शाखापि वर्णानि भवन्ति। एवञ्च तद्वदेव अत्रापि प्रधानमूलं किञ्चिदस्ति, तस्य अधिकारसूत्रम् इति व्यवहारः, तदधीने शाखाः सन्ति, तदधीने यानि वर्णानि सन्ति वर्णानां दृष्ट्या शाखाः अधिकारत्वं प्राप्नुवन्ति इत्येवं क्रमः दृश्यते। तत्र अष्टाध्याय्या मध्याम् अध्यायविभागः एवं कृतः दृश्यते। तत्र अस्माभिः गतपर्याये दृष्टमेव, प्रथमाध्याये संख्यासूत्राणि परिभाषासूत्राणि, द्वितीये अध्याये विभक्त्यर्थाः समासाश्च, तृतीयाध्याये धातुभ्यः प्रत्ययाः, चतुर्थपञ्चमाध्यायोः त्रिप्रत्ययाः कथितप्रत्ययाश्च, षष्ठाध्याये किञ्चित् स्वराजिनां निरूपणम्, सप्तमाध्याये अन्दाधिकारस्थः विषयः अष्टमाध्याये द्वित्वसहसन्धि तत्त्वनत्वादिनं निरूपणम् इत्येवं क्रमेण अध्यायविभागः कृतः पाणिनिः. एवञ्च एतेषु विभागेषु एते साकाररूपेण तिष्ठन्ति. अत्रापि अधिकारी इति कश्चित् भवति. एवं चेत् अधिकारसूत्राणि कानि इति जिज्ञासा समुदेति. अधिकाररक्षणमस्माभिः अवगतम्. गोत्सरे रक्षणसंस्कारबोधायनकत्वे सति गोत्सरवर्ति विधिशास्त्रैव वाक्यतापन्नत्वम्. विधिसूत्राणि कानि विधिसूत्राणां लक्षणमपि अवगतम्. अधिकारसूत्रस्य लक्षणम् अवगतं. विधिसूत्रस्य लक्षणम् अस्माभिः अधीतम्. एवञ्च अधिकारसूत्राणि विधिसूत्रेषु स्व अधिकारं स्थापयन्ति. तथा च अष्टत्वपि अध्यायेषु अधिकारसूत्राणि सन्ति. तानि च अधिकारसूत्राणि विधिसूत्रेषु स्व अधिकारं प्रदर्शयन्ति. स्वस्तरे तेषां न किञ्चित् कार्यं स उत्तरसूत्रेषु तेषां कार्यम् इति ज्ञेयम्. कथम् उत्तरसूत्राणि कानि इति आदौ द्रष्टुं ज्ञेयम्. एवं च अधिकारसूत्राणि प्रधानानि कानिचन सन्ति. यथा मया उक्तं प्रधानानि अधिकारसूत्राणि कानिचन सन्ति. तेषां बहुधा उपयोगः जायते. तानि च अधिकारसूत्राणि इह भवतां पुरस्तास्सन्ति. अत्र पश्यन्ति चेत् एकसंख्याधिकारः इति अधिकारः पादकारात् एका संज्ञा इति सूत्रम् प्रायः सर्वेषां समीपे पुस्तकानि स्युः इति भावयामि. तत्र पुस्तकम् उद्घाटयन्तु. प्रथमाध्यायः उद्घाटयन्तु. प्रथमाध्याये प्रथमं सूत्रं भवन्तः दृश्यन्ते. वृद्धिरादैः इति प्राप्तं स्यात् सर्वैः. अस्तु, सर्वैः प्राप्तम् इति भावयित्वा अग्रे गच्छामि. प्रथम पाणिनि अष्टाध्यायी सूत्रपाठ इति पुस्तके प्रथमाध्याये प्रथमपाठे प्रथमं सूत्रमस्ति वृद्धिरादे इति. चतुर्थपादम् उद्घाटयन्तु. पुस्तके चतुर्थपादम् उद्घाटयन्तु. प्रथमाध्यायस्य चतुर्थपादम् उद्घाटितम्. अहं ज्ञातुमिच्छामि. श्रुता महोदय, श्रूयते वा? हरि ओम्. सदागोपमहोदय, हरि ओम्. इदानीं पुस्तकम् उद्घाटितं भवति. चतुर्थपादे प्रथमं सूत्रं किमस्ति? प्रथमं सूत्रं किमस्ति? समीचीनम्. एवञ्च प्रथमं सूत्रमस्ति आकारादेकासंज्ञा. चतुर्थाध्यायस्य प्रथमपादे इदं प्रथमं सूत्रम् आकारादेकासंज्ञा इति. सूत्रेण अनेन पश्यन्तु सूत्रस्य व्याप्तिं पश्यन्तु प्रथमाध्यायस्य चतुर्थभागे प्रथमं सूत्रमिदं द्वितीयाध्यायस्य द्वितीयपादं द्वितीयपादे अष्टात्रिंशत्तमं सूत्रम् उद्घाटयन्ति द्वितीयाध्यायम् उद्घाटयन्तु तत्र द्वितीयपादम् उद्घाटयन्तु द्वितीयपादम् द्वितीयपादे पश्यन्तु अष्टात्रिंशत्तमं सूत्रमस्ति सर्वैः उद्घाटितम् विजयकुमार महोदय विजयकुमार महोदय पुस्तकमध्याधिकम् हरि ओम् अस्तु पश्यामः अग्रे गच्छामः तत्र अष्टात्रिंशत्तमं सूत्रं भवति अपेकापोष मुक्तपतिलापत्रस्थैः अल्पकः प्राप्तम् इति भावयामि तत्र आकरादेकासंज्ञा इत्यस्य अधिकारः कियान् इत्यस्मिन् विषये अधुना चिन्तनं क्रियमाणमस्ति तत्र प्रथमाध्यायस्य चतुर्थपादे प्रथमं सूत्रमस्ति आकारा वेदा संज्ञा इतः आरभ्य प्राक्तात् द्वितीयाध्यायस्य द्वितीयपादे अष्टात्रिंशत्तमं सूत्रं पश्यन्तु अष्टात्रिंशत्तमं सूत्रं सूत्रे तस्मिन् भवन्तः द्रष्टुं शक्नुवन्ति सूत्रमस्ति अपेताबोधमुक्तपतितापत्रस्थैः अल्पशः अपेताबोधमुक्तपतितापत्रस्थैः अल्पशः एतावत्पर्यन्तम् अथवा आकडारादेकासंज्ञा इत्यारभ्य द्वितीयाध्यायस्य द्वितीयपादे अष्टात्रिंशत्तमं सूत्रम् अपेताकोषमुक्तपतितापत्रस्थैः अल्पशः इति सूत्रपर्यन्तम् आकडारादेकासंज्ञा इति सूत्रस्य अधिकारः अस्ति इति ज्ञातव्यम् अर्थात् एतावत् क्षेत्रे तस्य आधिपत्यमस्ति इति अवगन्तव्यम् यत्पर्यन्तं प्रथमाध्यायस्य चतुर्थपादे प्रथमसूत्रादारभ्य द्वितीयाध्यायस्य द्वितीयपादे अष्टात्रिंशत् सूत्रपर्यन्तम् आकारादेकासंज्ञाय सूत्रस्य अधिकारः इत्येवम् एकः अधिकारः तदधिकारे पुनः अपरः अधिकारः इदं प्रधानेषु अधिकारेषु अस्माभिः चिन्तनं क्रियते ततः परं सामान्यान् अधिकारान् पश्यामः पश्यन्तु आकारादेकासंज्ञा अयमेकः अधिकारः ततः कारके इत्येकः अधिकारः अस्ति कारके अस्मिन् अस्य अधिकारस्य व्याप्तिं पश्यन्तु प्रथमाध्यायस्य चतुर्थपादे त्रयोविंशतितमं सूत्रमिदम् प्रथमाध्यायस्य चतुर्थपादे പ്രഥമാധ്യായത്തിൽ ചതുർത്ഥഭാഗെ പ്രയോവിംശതിതമം സൂത്രമസ്തി കാരകേ ഇതി. തദാ ആരഭ്യ പ്രഥമാധ്യായസ്യ ചതുർത്ഥേവ ഭാഗെ പഞ്ചപഞ്ചാശത്തമം സൂത്രം ഭവതി. ദ്വിതീയാധ്യായ അന്തിമം സൂത്രം പഠിക്കുന്നു. ദ്വിതീയാധ്യായ ദ്വിതീയഭാഗത്തെ അന്തിമം സൂത്രം സൂത്രം ദൃശ്യേത. ദ്വിതീയാധ്യായത്തെ ദ്വിതീയഭാഗത്തെ അന്തിമം സൂത്രം കടാരാം കർമ്മധാരയേ. പാവപര്യന്തം അധ്യാപികാരം ജ്ഞാനി ൂത്രേ ഖലു പ്രഥമാധ്യായ ഉത്തമ അധ്യായവിഭാഗ്യ സൂത്രപര്യന്തം സമൂഹ തസ്മൂഹ അത് സൂത്രത്തെ അധികാരം അസ്തി അർത്ഥ തസ്മൂഹെ പ്രഥമാധ്യായത്തെ ചതുർത്ഥഭാഗേ പ്രയോവിംശതിതമ സൂത്രാദാരഭ്യ തസ്മിന്നേവ അധ്യായേ പഞ്ചപഞ്ചാശത്തമസൂത്രപര്യന്തം അസ്യ അധികാരം സൂത്രാദാരഭ്യ പഞ്ചപഞ്ചാശത്തമം സൂത്രം പശ്യന്തു പദഃ തസ്മിന്നേവ അധ്യായേ തസ്മിന്നേവ പാഠേ പഞ്ചപഞ്ചാശത്തമം സൂത്രം അവലോകയന്തു തത്ര ഭവദ്ഭിഃ പ്രാപ്യതേ തദ്സൂത്രം. പഞ്ചപഞ്ചാശത്തമം സൂത്രം ഭവതി തത്പ്രയോജകോ ഏതാവത് പര്യന്തം യഹ ഭാഗമസ്തി സഹ ഭാഗം താരകസ്യ അധികാരേ ആയാമി താരകേ വ്യധികാരേ ആയാമി. എന്റെ ആകരാ ഏകാസന്യായിക്ക് മഹാൻ മഹത്ഫലമസ്തി സത്യസ്ഥലത്യ മഹതമസ്ഥലത്യ അധികാരി ഭവതി ആകരാ ഏകാസന്യായി സൂത്രം സദാകം മധ്യേ കച്ചന ഭാഗം അസ്തി താരകേ അഗ്രിമം സമാസാധികാരം ആരംഭിച്ചത് ദ്വിതീയാധ്യായ തൃതീയം സൂത്രം പുസ്തകമുദ്ധ്യാസ്യേകാനന്ദ്രമുദ്ധ്യാസ്യോയോഗാ ദ്വിതീയാധ്യായേ അഷ്ടാത്രിംശത്തമം സൂത്രം അഷ്ടാധ്യായ്യാമ മഹാനയമധികാരൃതീയകാലേ പ്രഥമം സൂത്രം പുസ്തകം ഉദ്ഘാടനം പുസ്തകത്തെ തൃതീയാധ്യായ പ്രഥമപാഠേ പ്രഥമം സൂത്രം തൃതീയാധ്യായ പ്രഥമപാഠേ പ്രഥമം സൂത്രം ചിത്രേ ദോഷം അസ്തി അതൃശ്യതാം തൃതീയാധ്യായ പ്രഥമപാഠേ പ്രഥമം സൂത്രം അഗ്രേ ദ പഞ്ചമാധ്യായ ചതുർത്ഥ പാഠേ ഷഷ്ട്യധിക शतसूत्रपर्यन्तम् अस्य सूत्रस्य अधिकारः अस्ति. पश्यन्तु, व्याप्तिं पश्यन्तु. तृतीयाध्यायस्य प्रथमभागे प्रथमं सूत्रं, ततः आरभ्य पञ्चमाध्यायस्य चतुर्थभागे षष्ट्यधिकशततमसूत्रपर्यन्तम् अस्य व्याप्तिः अस्ति. पञ्चमाध्यायस्य चतुर्थभागम् उद्घाटयन्तु. पञ्चमाध्यायस्य चतुर्थभागे अन्तिमं सूत्रम् उद्घाटयन्ति. निष्प्रवाणिश्च इति सूत्रमस्ति. निष्प्रवाणिश्च तावत्पर्यन्तम् अर्थात् तृतीयाध्यायस्य प्रथमपादादारभ्य पञ्चमाध्यायसमाप्तिं यावत् अस्य सूत्रस्य अधिकारः नास्ति. महानयमधिकारः. अतः पश्यन्तु, महानयमधिकारः दृष्टमस्य तृतीयाध्याये एव पञ्चशताधिकानि सूत्राणि सन्ति. पुनः चतुर्थाध्याये अपि षट्शताधिकानि सूत्राणि सन्ति. ततः पञ्चमाध्याये अपि ततोत्यधिकानि सूत्राणि सन्ति. प्रायः अर्धाधिकानि सूत्राणि, अष्टाध्याय्याः अर्धाधिकानि सूत्राणि अत्रैव सङ्गृहितानि भवन्ति प्रत्ययाधिकानि. एवञ्च प्रत्ययः इत्यस्य अधिकारत्वं निरवृत्तिम् इति ज्ञानम् अस्य व्याप्तिं दृष्ट्वा एव ज्ञायते. अयं च महान् अधिकारः भवति प्रत्ययः इति अधिकारः. तृतीयाध्यायस्य प्रथमपादस्य प्रथमसूत्रादारभ्य पञ्चमाध्यायस्य अन्तिमसूत्रपर्यन्तं महान्ति अयम् अधिकारः प्रत्ययाधिकारः. प्रत्ययाधिकारे एते विचाराः गच्छन्ते इति वयम् अग्रे रक्ष्यामः. अग्रे नाम अग्रिमासु रक्ष्यामः. प्रथमः धात्वधिकारः. धात्वधिकारद्वयमस्ति. तत्र यः प्रधानः अधिकारः अस्ति सः अधिकारः मया अत्र भवतां कृत्वा प्रदर्शितः वर्तते. धातोः प्रजाधिकारः तृतीयाध्यायस्य प्रथमकाले एकनवतितमं सूत्रं पश्यन्ति. 91 तृतीयाध्यायस्य प्रथमकाले एकनवतितमं सूत्रम् धातोः इति सूत्रमस्ति. सर्वैः प्राप्तं धातोः इति सूत्रम् तृतीयाध्यायस्य प्रथमपादे एकनवतितमं सूत्रम् धातोः उच्यते. तथा आरभ्य तृतीयाध्यायस्य चतुर्थपादस्य सप्तदशाधिकशततमसूत्रपर्यन्तम् अत्र अधिकारः अस्ति. तृतीयाध्यायस्य चतुर्थपादस्य सप्तदशोत्तरशततमसूत्रपर्यन्तम् धातोः इत्यस्य अधिकारः अस्ति. एवं च अयम् अधिकारः धातुसम्बन्धि अधिकारः. प्रत्ययः इत्युक्तम् कुत्र प्रत्ययः? धातोः भवन्ति प्रत्ययाः. एते प्रत्ययाः, ये प्रत्ययाः तृतीयाध्यायस्य प्रथमभागे एकनवतितमसूत्रादारभ्य तृतीयाध्यायस्य चतुर्थभागे सप्तदशोत्तरशतसूत्रपर्यन्तम् ये प्रत्ययाः उक्ताः ते सर्वेपि धातोः भवन्ति इत्यर्थः भवति. इति प्राख्यां वयमध्ये न गच्छामः. अधिकारः कथं भवति इति विषये चिन्तयन्तः स्मः. ततः नात्रातिपदिका धातोः इत्युक्तं परस्परं प्रत्ययः द्विधा विधीयन्ते. सामान्यज्ञानार्थम् यथविज्ञानमनन्तरं प्रदास्यते. प्रत्ययाः द्विधा विधीयन्ते, धातुभ्यः प्रातिपदिकेभ्यः. धातुभ्यः विधीयमानाः प्रत्ययाः धातोः अधिकारे उक्ताः. प्रातिपदिकेभ्यः विधीयमानाः प्रत्ययाः नाप्रातिपदिकाभिधिकारे सन्ति. नाप्रातिपदिकाप्रातिपदिकाः प्रत्ययाः भवन्ति इत्यर्थः भवति. प्रातिपदिकाधिकारः, प्रातिपदिकाधिकारः సూత్రం పశ్యంతు చతుర్థాధ్యాయస్య ప్రథమ పాదే ప్రథమం సూత్రం. చతుర్థాధ్యాయస్య ప్రథమ పాదే ప్రథమం సూత్రమస్తి న్యాప్రాతిపదిక. ఇక ఆరభ్య పశ్యంతు పుస్తకం చతుర్థాధ్యాయస్య ప్రథమ పాదే ప్రథమ సూత్రాలారభ్య పంచమాధ్యాయ సమాప్తి పర్యంతం ప్రాతిపదికాధికారాధికారే హరి ఓం. అగ్రిమం సూత్రం భవతి సంహితాయాం. ప్రధానాని సూత్రాన్ని అటువంటి దృష్టాన్ని ఆచారాదేశాల సంఖ్య కారకే ప్రాకరాయాసమాసన ప్రత్యయ భాగో జ్ఞాపకాధికారి చేయడానికి సూత్రాన్ని అస్మాభిః సంహితాయాం ఏకం సూత్రమస్తి. చతుర్థాధ్యాయస్య ప్రథమ పాదే దోషాస్తి ద్విసప్తతితమ సూత్రం పశ్యంతు 72 అత్ర 174 ఇది అస్తి మాస్తు తత్ర దోషాస్తి. ద్విసప్తతితమ సూత్రం పశ్యంతు 72 ద్విసప్తతితమ సూత్రం సంహితాధికారే ద్విసప్తతితమ సంహితాధికార సంహితాయామితి సూత్రాన్ని షట్ధ్యాయస్య ప్రథమ పాదే ద్విసప్తతితమం సూత్రం 72 ప్రాయణ సర్వైః ప్రాప్తమితి భావయామి. ద్విసప్తతితమం సూత్రం అవలోకయంతు 72 సంహితాయామితి సూత్రం ప్రాప్యేతమత్ర భవతి. తస్మాత్ సూత్రాద్ ఆరభ్య ప్రథమ ఆరభ్య భవంతః అగ్రే గచ్చంతి చేతమం సూత్రం పశ్యంతు చతుష్పంచాశదశకశతమం సూత్రం. చతుష్పంచాశదశకశతమం సూత్రం తస్మిన్నేవ పాదే షట్థాధ్యాయస్య ప్రథమ పాదే చతుష్పంచాశదశకశతమం సూత్రం పశ్యంతు. మత్కరమత్కరిణౌ రేణు పరిభ్రాజకయోః ఇది సూత్రమస్తి. మత్కరమత్కరిణౌ तावत्पर्यन्तं संहितायां सूत्रस्य अधिकारः अस्ति. एतावत्पर्यन्तं यान्यपि सूत्राणि सन्ति ते सूत्रेषु संहिविचारः उत्तमः इत्यपि गन्तव्यम्. संहिविचारः, प्रतिभावविचारः इत्यादयः विचाराः अस्मिन् प्रकरणे प्रोक्तं. संहितायाम् इत्यधिकारान्तर्गतानि नटेषु सूत्रेषु उक्तं वर्तते. चतुर्थे पादे प्रथमं सूत्रं पश्यन्तु. अङ्गस्याय सूत्रं लक्ष्यते. षष्ठाध्यायस्य चतुर्थपादे प्रथमं सूत्रमस्ति अङ्गस्याय. इतः आरभ्य सप्तमाध्यायस्य चतुर्थपादे सप्तनवतिगमसूत्रपर्यन्तम् चतुर्थाध्यायस्य प्रथमं सूत्रमस्ति अङ्गस्याय. अङ्गस्याय प्रथमं सूत्रं चतुर्थाध्यायस्य चतुर्थभागे प्रथमं सूत्रम् अङ्गस्याय. ततः सप्तमाध्यायस्य चतुर्थभागे अन्तिमं सूत्रं पश्यन्तु. इन्द्रगणः सूत्रं तत्र भवद्भिः काव्यते. सप्तमाध्यायस्य चतुर्थभागे अन्तिमं सूत्रम् अर्थात् सप्तमाध्यायस्य अन्तिमं सूत्रं पश्यन्तु. ईकगणः इति एवञ्च षष्ठाध्यायस्य चतुर्थभागस्य प्रथमसूत्रादारभ्य सप्तमाध्यायस्य अन्तिमसूत्रपर्यन्तम् अङ्गस्यायस्य विचारः अस्ति. ततः पदस्य इति पदसम्बन्धीकार्याणि उक्तानि. पदमधिकर्याणि कार्याणि विहितानि तानि कार्याणि. एवञ्च पदाधिकारः कियानस्ति इत्युक्ते अष्टमाध्यायस्य प्रथमपादे षोडशतमं सूत्रं भवति पदस्य. अष्टमाध्यायस्य प्रथमपादे षोडशतमं सूत्रं निष्कासयन्ति. अन्तिमाध्याये प्रथमपादे षोडशतमं सूत्रं भवति पदस्य इति. ततः आरभ्य अष्टमाध्यायस्य तृतीयपादे पञ्चपञ्चाशत्तमं सूत्रमस्ति अपराङ्कस्य मूर्धन्यः. ततः पूर्वपर्यन्तं सूत्रपर्यन्तम् इलाया वा इति सूत्रपर्यन्तम् अर्थात् अपराङ्कस्य मूर्धन्ये सूत्रात्वा पदस्याधिकारः अस्ति इत्यधिगन्तव्यम्. पदस्य इत्यधिकारः अपराङ्कस्य मूर्धन्यः इति सूत्रात्वा अस्ति. अत्र पदसम्बन्धीनि कार्याणि सर्वाण्यपि पदमधिकृत्य कार्याणि विधीयन्ते. तानि सर्वाण्यपि अष्टमाध्यायस्य प्रथमपादस्य षोडशतमसूत्रात् आरभ्य अपराङ्कस्य मूर्धन्यः अष्टमाध्यायस्य तृतीयपादस्य पञ्चपञ्चाशत्तमसूत्रात् पर्यन्तं भवन्ति इति ज्ञेयम्. इत्येवम् अधिकारविचारः अत्र दृष्टः. तत्र पुनः प्रधानः कश्चन अधिकारः अस्ति. अयञ्च अधिकारः असिद्धाधिकारः इत्युच्यते. पूर्वत्रासिद्धत्वाधिकारः इति. अष्टमाध्यायस्य द्वितीयपादस्य प्रथमं सूत्रं पश्यन्ति. अष्टमाध्यायस्य द्वितीयपादस्य प्रथमं सूत्रम् अवलोकयन्ति. पूर्वत्रासिद्धम् इति सूत्रमस्ति. अङ्गलीयं स्वीकृत्य तत्र अङ्गलीयं कुर्वन्ति चेत् बहु उत्तमं. यद्य मया उक्तं तत्सर्वं यदि भवन्तः अङ्गन्या अङ्कयन्ति चेत् बहु उत्तमं भविष्यति. भवतां बहु आधाय भवति. पश्यन्तु अष्टमाध्यायस्य द्वितीयपादे प्रथममिदं सूत्रं पूर्वत्रासिद्धम् इति. ആരഭ്യ അഷ്ടമാധ്യായത്തിൽ സമാപ്തി അഷ്ടമാധ്യായത്തിൽ ചതുർത്ഥവാടെ അഷ്ടചക്ഷിതം സൂത്രമത്തിൽ താവത്പര്യന്തം അസിദ്ധാധികാരം അസ്തി അയമേക പ്രധാനാധികാരം അനേന അധികാരേണ വ്യാകരണേ ബഹൂനി കാര്യാണി സാധ്യന്തെ ബഹൂനാം രൂപാണാം നിഷ്പാദനായ അതിന്റെ അധികാരത്തിന് മഹാന് ഉപയോഗം അസ്തി പൂർവത്രാസിദ്ധം നിത്യധികാരം അസിദ്ധാധികാരം ഏവഞ്ച അനേന സൂത്രേണ അഷ്ടാധ്യായാഹ വിഭാഗദ്വയം കൃതം ദൃശ്യത്തെ സമാധസപ്താധ്യായീ ത്രിപാലീതി ഏവഞ്ച സമാധസപ്താധ്യായീ നാമ പാദേന സംഗമ സപാദഃ സപാദ സപ്താധ്യായി സപ്ത അധ്യായാഹ സന്തി പാദേന സംഗമ അർത്ഥാത് അഷ്ടമാധ്യായ പ്രഥമകാലപര്യന്തം സപാദ സപ്താധ്യായി ഇതി വ്യവഹാരഃ തതപരം വിഭാഗദ്വയം അസ്മാഭിഃ വ്യാകരണാധ്യയനവേളായാം അധ്യാപകാനാം മുഖാത് ബഹുധാ കൃതം പ്രഭാതസപ്താധ്യായം പ്രതി കൃപാഭ്യതിഭാവ്യം ബഹുഭിഃ കൃതം ഏ വ്യാകരണാധ്യയനം കൃതവന്തഃ ഇതരിവ തേഷാം ഭവിഷ്യമസ്തി സൂത്രസ്യ വിഷയേന അസ്ത്യേവ സമാധസപ്താധ്യായീ പ്രതിഭാവ്യതിഭാവ്യാദി വാക്യാനി സമാധസപ്താധ്യായീ നാമ സപ്താധ്യായാഃ അഷ്ടമാധ്യായസ്യ പ്രഥമഃ പാദഃ ത്രിപാദി നാമ അഷ്ടമാധ്യായസ്യ ദ്വിതീയപാദഃ തൃതീയപാദഃ ചതുർത്ഥപാദഃ ഇത്യേവം പാദത്രയം സംഗ്രഹ്യ ത്രിപാദീതി വ്യവഹ്രിയതേ കാരണം പൂർവത്രാവിദ്ധം ഇതി സൂത്രമേവ തസ്യ സൂത്രം അഷ്ടമാധ്യായസ്യ ദ്വിതീയപാദസ്യ പ്രഥമം സൂത്രം സമാരഭ്യ പാദത്രയം ഇത്യർത്ഥഃ ൂത്രപര്യന്തം അഷ്ടമാധ്യായത്തി ചതുർത്ഥപാദത്തി ചതുർത്ഥസൂത്രപര്യന്തം അസ്യ സൂത്രസ്യ അധികാരः അസ്ति അതः വിദ്യമാനാനി സർവാണ്യ സൂത്രാണി സമാധസപ്താധ്യായി ദൃഷ്ട്യാ അസിദ്ധാനി ഭവന്തി ഇത്യർത്ഥജ്ഞാനം തെരജായതേ തസ്യ വിവരണം തു കാലാന്തരെ വയം അധ്യമാസുരസ്യ അനുദ്രസ്യാമ ഇത്യേവം ക്രമേണ പ്രധാനാഃ അധികാരാഃ പ്രകോക്താഃ ഇതസ്തം ക്രമേണ ഭവന്തഃ തത്ര വിദ്യമാനാനി സാമാന്യ അധികാരാണി വിശേഷ അധികാരാ സന്തി പരന്തു ഏതാന്യധികാരസൂത്രാണി വിശേഷാ അധികാരാ സന്തി ഏതാന്യധികാരസൂത്രാണി സന്തി ലക്ഷ്യമാനാണി താനി പ്രധാനാധികാര അന്തർഗതാണി സൂത്രാണി പശ്യന്തു ഏതാന്യധികാരാണി ക്രമശഃ പശ്യന്തി ഗച്ഛാമി ഭവന്തഃ അവലോകയന്തഃ ഭവന്തു കാലാന്തരേ കക്ഷ്യായാം മഹാഭ്യുത്തരം ൂത്രാണിഷ്യന്തിയനം അസ്യ പത്രാണി ഭഗവാൻ ഉദ്ഘാട്യന്തി തഥാ ദോഷ പരിഷ്കാരം ഭവിഷ്യതി അനിവാര്യ സംജ്ഞാധികാരഃ കർമ്മപ്രയോജനീയ സംജ്ഞാധികാരഃ അവ്യയീഭാവാധികാരഃ തത്പുരുഷാധികാരഃ അനഭീതാധികാരഃ തത്പുരുഷേ നപുംസകാധികാരഃ ഇത്യേവം ക്രമേണ അധികാരാഃ പ്രവർത്തക ദർശനം ശക്നുവന്തി അഗ്രവര്യന്തോ വ്യഭിചാരമായ ഇതിന്റെ അധികാരം കിട്ടിയത് ഞാൻ തിരുമേനി എന്റെ സ്ത്രീയായ ഇതിന്റെ അധികാരം അധികാരം ഉദ്ദേശിക്കട്ടെ അത്ര പക്ഷേ സഭ്യതാധികാരമായിരിക്കും അയമത്തിലൊക്കെ മഹാൻ അധികാരം അതിന്റെ അധികാരം പ്രത്യാധികാര അന്തരം അതിനൊക്കെ അധികാരം പ്രധാനയുടെ അധികാരമായിട്ട് നാം പ്രകടിക്കണം സഭ്യതാധികാരം അധ്യയനം വിസ്തൃതരൂപേണോഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ്ഡ భూవంతు. ఇది ఆయన అద్భుతన గట్టిగా అక్కడ అవతీయలే. ఎది ప్రశ్న ప్రస్తుతమంటే ఎది కదాచిత్ ఎది ప్రశ్న ఉత్తరం దోషేంద్రం ప్రాప్యతే తర్హి నేన వితరితాః వా భవంతు మయా భవద్భ్యః యద్ మేల్ ప్రేషితం తస్మిన్నేవ భవంతః ఇది ప్రశ్నాన్ స్థాపయంతి ఉత్తరం ప్రాప్యంతి. ప్రశ్నాన్ కువంతి అవశ్యం ఉత్తరం ప్రాప్స్యంతి ఇది విషయం భవతాం చింతా మాత్రం అవశ్యం ఉత్తరం ప్రాప్స్యంతి భవంతః. అది అవశ్యం తప్ప నేను కృత్వా సంశయాన్ని ప్రశ్నమర్హంతి. అత్ర ఏది ప్రశ్నానాం ఉత్తరం భవద్భ్యః న ప్రాప్యతే ఇది తస్మిన్ పక్షే సమాజ్యమస్తి ఏవ భవతాం పునీతి.